श्रीगणेशाय नमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः सीताशक्तिः श्रीमद्हनुमान् कीलकम् श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः। अथ ध्यानम्। इति ध्यानम्।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् पुंसां महापातकनाशनम् ध्यात्वा नीलोत्पलः श्यामम् रामम्
कौशिकः। आरामः कल्पवृक्षाणां विरामः सुपन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ क्षीरकृष्णाजिनाम्बरौ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मतां रक्षः कुलनिहन्तारौ सदैव गच्छताम् सन्दद्धः कवची खड्गे चापबाणधरो युवा गच्छन्मनोरथोऽस्माकम् रामः पातु स लक्ष्मणः रामो दाशरथिः शूरो लक्ष्मणानुचरो बलि काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ुणानवं गुणनिधिम्
श्रीबुधकौशिक विरचितं राम रक्षा स्तोत्रं संपूर्णम्।